Sai Ram, dear listeners, and welcome back to the studios of Radio Sai Prashanti Nilayam, bringing you live broadcast every Thursday on the Asia stream of Radio Sai. It's been raining heavily from the last 3 days in Puttaparthi, and even as we start our evening session of this week's Thursday Live, after the proceedings in the Sai Kulwanth Hall, there is a still heavy downpour outside. The time now in our studios is 6:20 p.m. And this is Team Radio Sai's Ganesh taking you across to the Vedam Tutor, which brings the evening session of this Thursday Live. As the children from the schools and colleges in Parthi have left for vacation today, we will be having Brother Bhargav and Brother Vishweshwar to participate in today's Vedam class, where we will be continuing learning the Anandavalli. We shall start today's class with Omkaram and Ganapati Prarthana.
Om Gananantva Ganapatigum Havamahe Kavim Kavinamupamashravastamam Jeshtharajam Brahmanam Brahmanaspata Anashrunvan Notivissedasadhanam Prano Devi Saraswati Vaje Virvajini Vate Dhinava Vitriyavato Ganeshaya Namaha Saraswate Namaha Shri Gurubhyo Namaha Harihi Om.
Before we start the new paragraph, we'll just revise the last week's paragraph. Starting from Pranam Deva Anupranamti, we'll chant together.
Pranam Deva Anupranamti Manushya Pashavaschaye Pranohi Bhuta Namayuhu Tasma Atsarva Yushamuchyate Sarvamevata ayuryanti ye pranam brahmopasate pranohi bhutanam ayuho tasmat sarvayushamuchyata ite tasyaisha eva sharira atma yah purvasya Tasmadva ye tasmat pranamayat anyantara atma manomayaha tenaisha purnaha sama esha purusha vidhayevam tasya purusha vidhatam anvayam purusha vidaha tasya yajure vashiraha Rukdakshinah Pakshah, Samottarah Pakshah, Adesha Atma, Atharvangirasah Puttham Pratishtha, Tadabhyesha Shloko Bhavati.
I'll repeat each line once, you repeat twice after me.
Yato vacho nivartante Yato vacho nivartante Yato vacho nivartante Apraapya manasa saha Apraapya manasa saha Apraapya manasa saha Anandam brahmano vidvan Anandam brahmano vidvan Anandam brahmano vidvan Nabibheti kadachaneti Nabibheti kadachaneti Nabibheti kadachaneti Tasyesha eva sharira atma Tasyaisha eva sharira atma Tasyaisha eva sharira atma Yah
Yappurvasyam
tasmadva yetasmaan manomayat
tasmadva yetasmaan manomayat tasmadva yetasmaan manomayat
anyontara atma vijnanamayah
anyontara atma vijnanamayah anyontara atma vijnanamayah
tenaisha purnaha
tenaisha purnaha tenaisha purnaha
sava esha purusha vidhayeva
sava esha purusha vidhayeva sava esha purusha vidhayeva
tasya purusha vidhatam
tasya purusha vidhatam tasya purusha vidhatam
anvayam purusha vidhaha
anvayam purusha vidhaha anvayam purusha vidhaha
tasya shraddhaiva shiraha
tasya shraddhaiva shiraha tasya shraddhaiva shiraha
rutam dakshina pakshaha
rutam dakshina pakshaha rutam dakshina pakshaha
satyamuttara pakshaha
satyamuttara pakshaha satyamuttara pakshaha
yoga atma
yoga atma yoga atma
mahapuccham pratishtha
mahapuccham pratishtha mahapuccham pratishtha
tadapyesha shloko bhavati
tadapyesha shloko bhavati tadapyesha shloko bhavati
we'll chant this paragraph together.
Yato vacho nivartante aprapya manasa saha anandam brahmano vidvan na bibheti kadacha neti tasyaisha eva sharira atma yah purvasya tasmadva etasmaan manomayat anyontara atma vijnanamayah tenaisha purnaha sava esha purusha vidhayeva tasya purusha vidhatam anvayam purusha vidhaha tasya shraddhaiva shiraha rutam dakshina pakshaha satyamuttara pakshaha yoga atma mahapuccham pratishtha tadabhyesha shloko bhavati
vijnanam yajnam tanute
vijnanam yajnam tanute vijnanam yajnam tanute
karmani tanute picha
karmani tanute picha karmani tanute picha
vijnanam deva sarve
vijnanam deva sarve vijnanam deva sarve
brahmajyeshthamupasate
brahmajyeshthamupasate brahmajyeshthamupasate
vijnanam brahmachetveda
vijnanam brahmachetveda vijnanam brahmachetveda
tasmachena pramadhyate.
Tasmachena pramadhyate. Tasmachena pramadhyate.
Sharire papmano hitva.
Sharire papmano hitva. Sharire papmano hitva.
It is.
Sharire papmano hitva.
Sharire papmano hitva. Sharire papmano hitva.
It is.
Papmano hitva.
Papmano hitva.
Sharire papmano hitva.
Sharire papmano hitva. Sharire papmano hitva.
Sarvan kaman samashnuta iti.
Sarvan kaman samashnuta iti. Sarvan kaman samashnuta iti.
Tasyesha eva sharira atma.
Tasyesha eva sharira atma. Tasyesha eva sharira atma.
Yah purvasya.
Yah purvasya. Yah purvasya.
Tasmadva yetasmadvijnanamayat.
Tasmadva yetasmadvijnanamayat. Tasmadva etasmadvijnanamayat.
Anyontara atmanandamayaha.
Anyontara atmanandamayaha. Anyontara atmanandamayaha.
Once again.
Anyontara atmanandamayaha.
Anyontara atmanandamayaha.
Once more.
Anyontara atmanandamayaha.
Tenaisha purnaha.
Tenaisha purnaha. Tenaisha purnaha.
Sava esha purusha vidhayeva.
Sava esha purusha vidhayeva. Sava esha purusha vidhayeva.
Tasya purusha vidhatam.
Tasya purusha vidhatam. Tasya purusha vidhatam.
Anvayam purusha vidhaha.
Anvayam purusha vidhaha. Anvayam purusha vidhaha.
Tasya priyame vashiraha.
Tasya priyame vashiraha. Tasya priyame vashiraha.
Modo dakshina pakshaha.
Modo dakshina pakshaha. Modo dakshina pakshaha.
Pramoda uttara pakshaha.
Pramoda uttara pakshaha. Pramoda uttara pakshaha.
Ananda atma.
Ananda atma. Ananda atma.
Brahma puccham pratishtha.
Brahma puccham pratishtha. Brahma puccham pratishtha.
Tadapyesha shloko bhavati.
Tadapyesha shloko bhavati. Tadapyesha shloko bhavati.
This paragraph we'll do it together.
Vijnanam yajnam tanute karmani tanute picha. Vijnanam deva sarve brahmajyeshthamupasate. Vijnanam brahmajedveda tasmachena pravadyate. Sharire papmano hitva sarvan kaman samashnuta iti. तस्यैष एव शरीर आत्मा यः पूर्वस्य तस्माद्वा एतस्माभिज्ञानमयात् अन्योन्तर आत्मानन्दमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः प्रमोद उत्तरः पक्षः आनन्द आत्मा ब्रह्मपुच्छम् प्रतिष्ठा तदभ्येष श्लोको भवति
असन्नेव स भवति
असन्नेव स भवति असन्नेव स भवति
असद्ब्रह्मेति वेद चेत्
असद्ब्रह्मेति वेद चेत्
इट् इस्
असद्ब्रह्मेति वेद चेत्
असद्ब्रह्मेति वेद चेत्
असद्ब्रह्मेति वेद चेत्
असद्ब्रह्मेति वेद चेत्
वन्स् मोर्
असद्ब्रह्मेति वेद चेत्
असद्ब्रह्मेति वेद चेत्
वन्स् अगेन्
असद्ब्रह्मेति वेद चेत्
अस्ति ब्रह्मेति चेत् वेद
अस्ति ब्रह्मेति चेत् वेद अस्ति ब्रह्मेति चेत् वेद
सन्तमेनम् ततो विदुरिति
सन्तमेनम् ततो विदुरिति सन्तमेनम् ततो विदुरिति
वन्स् अगेन्
सन्तमेनम् ततो विदुरिति
सन्तमेनम् ततो विदुरिति
सन्तमेनम् ततो विदुरिति
सन्तमेनम्
ततो विदुरिति
वन्स् अगेन्
सन्तमेनम् ततो विदुरिति तस्यैष एव शरीर आत्मा
तस्यैष एव शरीर आत्मा तस्यैष एव शरीर आत्मा
यः पूर्वस्य
यः पूर्वस्य यः पूर्वस्य
अथातो नुः प्रश्नाः
अथातो नुः प्रश्नाः अथातो नुः प्रश्नाः
असन्नेव स भवति
असन्नेव स भवति असन्नेव स भवति
असद्ब्रह्मेति वेद चेत्
असद्ब्रह्मेति वेद चेत् असद्ब्रह्मेति वेद चेत्
अस्ति ब्रह्मेति चेत् वेद
अस्ति ब्रह्मेति चेत् वेद अस्ति ब्रह्मेति चेत् वेद
सन्तमेनम् ततो विदुरिति
सन्तमेनम् ततो विदुरिति
वन्स् अगेन्
सन्तमेनम् ततो विदुरिति
तस्यैष एव शरीर आत्मा
तस्यैष एव शरीर आत्मा तस्यैष एव शरीर आत्मा
यः पूर्वस्य
यः पूर्वस्य यः पूर्वस्य
अथातो नुः प्रश्नाः
अथातो नुः प्रश्नाः अथातो नुः प्रश्नाः
विल् चाण्ट् दिस् टुगेदर्
असन्नेव स भवति असद्ब्रह्मेति चेत् चेत् अस्ति ब्रह्मेति चेत् वेद सन्तमेनम् ततो विदुरिति तस्यैष एव शरीर आत्मा
यः पूर्वस्य अथातो नुः प्रश्नाः
उत विद्वानमुम्
उत विद्वानमुम् उत विद्वानमुम्
लोकम् प्रेत्य
लोकम् प्रेत्य लोकम् प्रेत्य
उत विद्वानमुम् लोकम् प्रेत्य
उत विद्वानमुम् लोकम् प्रेत्य उत विद्वानमुम् लोकम् प्रेत्य
कश्चन गच्छति
कश्चन गच्छति कश्चन गच्छति
टिल् हियर् विल् चाण्ट् टुगेदर्
असन्नेव स भवति
असन्नेव स भवति
असद्ब्रह्मेति वेद चेत्
असद्ब्रह्मेति वेद चेत्
अस्ति ब्रह्मेति चेत् वेद
अस्ति ब्रह्मेति चेत् वेद
सन्तमेनम् ततो विदुरिति
सन्तमेनम् ततो विदुरिति सन्तमेनम् ततो विदुरिति
तस्यैष एव शारीर आत्मा
तस्यैष एव शारीर आत्मा
यः पूर्वस्य
यः पूर्वस्य
अथातो नुः प्रश्नाः
अथातो नुः प्रश्नाः
उत विद्वानमुम् लोकम् प्रेत्य
उत विद्वानमुम् लोकम् प्रेत्य
कश्चन गच्छति
कश्चन गच्छति
टिल् नौ वट् एवर् वी हव् डन् टुडे विल् रिवैस् विल् डू इट् टुगेदर्
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दम् ब्रह्मणो विद्वान् न बिभेति कदाच नेति तस्यैष एव शारीर आत्मा यः पूर्वस्य तस्माद्वायेतस्मान्मनोमयात् अन्योऽन्तर आत्मा विज्ञानमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्रश्रद्धैव शिरः ऋतम् दक्षिणः पक्षः सत्यमुत्तरः पक्षः योग आत्मा महःपुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति विज्ञानम् यज्ञम् तनुते कर्माणि तनुतेऽपि च विज्ञानम् देवाः सर्वे ब्रह्म ज्येष्ठमुपासते विज्ञानम् ब्रह्म चेद्वेदा तस्माच्चेन प्रमाद्यते शरीरे पापमनो हित्वा सर्वान् कामान् समश्नुत इति तस्यैष एव शारीर आत्मा यः पूर्वस्य तस्माद्वायेतस्माद्विज्ञानमयात् अन्योऽन्तर आत्मानन्दमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः प्रमोद उत्तरः पक्षः आनन्द आत्मा
ब्रह्मपुच्छं प्रतिष्ठा तदप्येष श्लोको भवति असन्नेव स भवति असद्ब्रह्मेति वेद चेत् अस्ति ब्रह्मेति चेद्वेद संतमेनं ततो विदुरिति तस्यैष एव शारीर आत्मा यः पूर्वस्य अथातोनु प्रश्नाः उत विद्वानमुं लोकं प्रेत्य कश्चन गच्छति
यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् तत्सर्वं क्षम्यतां देवा नारायण नमोऽस्तु ते विसर्गबिन्दुमात्राणि परपाराक्षराणि च न्यूनानि चातिरिक्तानि क्षमस्व सा ईश्वरा अपरारसहस्राणि क्रियन्ते हर्निशं मया दासोऽयमिति मा मत्वा क्षमस्व सा ईश्वरा अन्यथा शरणं नास्ति त्वमेव शरणं मम तस्मात् कारुण्यभावेन रक्ष रक्षसा ईश्वरा हरिः ॐ तत्सत्स्री साईश्वरार्पणमस्तु विथ दिस् वी कम् टु एन एंड टु दिस् वीक्स् वेदम् ट्यूटर् नौ ऐ हेण्ड् ओवर् द माइक् टु ब्रदर् बिशु टु टेक् ओवर् विथ् द रेडियो साहिब् भजन् क्लास् रूम् ओवर् टु ब्रदर् बिशु